अथ श्रीबुधाष्टोत्तरशतनामस्तोत्रम्
बुधो बुधाच्युतः सौम्यः सौम्यचित्तशुभप्रदः दृढम् व्रतो दृढबलश्रुतिजालप्रबोधकः सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः सोमजस्तु करः श्रीमान् सोमवंशप्रदीपकः वेद विद्वेद तत्त्वज्ञो वेदान्तज्ञानभास्करः विद्या विचक्षण विभुर्विद्वत्प्रीतिकरो बुधः विश्वानुकूलसञ्चारी विशेषविनयान्वितः विविधागमसारज्ञो वीर्यवान् विगतज्वरः त्रिवर्गफलदोऽनन्तस्त्रिदशाधिकपूजितः बुद्धिमान् बहुशास्त्रज्ञो बलीबन्धविमोचकः वक्त्रादिवक्त्रगमनो वासवो वसुधाधिपः प्रसादवदनो वन्यो वरेण्यो वाग्विलक्षणः सत्यवान् सत्यसङ्कल्पस्सत्यबन्धुः सदादरः सर्वरोगप्रशमनः सर्वमृत्युनिवारकः वाणिज्यनिपुणो वश्यो वातान्देवातरोगकृत् स्थूलस्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः अप्रकाशप्रकाशात्मा धनो गगनभूषणः विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः चारुशीलस्व प्रकाशो चपलश्चलितेन्द्रियः उदन्मुखो मखाशक्तो मगधाधिपतिर्करः सौम्यवत्सरसञ्जातः सोमप्रियकरस्तुखी सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवङ्करः पीताम्बरो पीतवपुः पीतच्छत्रध्वजाञ्चितः खड्गचर्मधरः कार्यकर्ता कलुषहारकः आश्रेयगोत्रजोऽत्यन्तदिनयो विश्वपावनः शान्तेयपुष्पसङ्काशश्चारणश्चारुभूषणः वीतरागो वीतभयो विशुद्धजनकप्रभः बन्धुप्रियो बन्धमुक्तो बाणमण्डलसंस्कृतः अर्केषामप्रदेशस्तत्तर्कशास्त्रविशारदः प्रशान्तप्रीतिसंयुक्तः प्रियकृत्प्रियभाषणः मेधावीमाधवासक्तो मिथुनाधिपतिः सुधीः कन्याराशिप्रियः कामप्रदो धनफलाश्रयः बुधश्चैवम् प्रकारेण नाम्नामष्टोत्तरम् शतम्।